प्रदीच्यां वारुणी रक्षेत् वायव्यां मृगवाहिनीं रक्षेदुदीच्यां कौमारी ईशान्यां शूलधारिणीं ऊर्ध्वं ब्रह्माणि मे रक्षेत् तदस्तात् वैष्णवी तथा एवं दश दिशो रक्षेत् चामुण्डा शववाहना जया मे जाग्रतःस्तातु विजयास्तातु पृष्ठतः अजिता वामपार्श्वे तु दक्षिणे चापराजिता शिखामुद्योतिनी रक्षेत् उमामूर्त्नि व्यवस्थिता मालाधरी ललाटे च भ्रुवौ रक्षेत् यशस्विनीं त्रिनेत्रा च भ्रुवोर्मध्ये यमकण्ठाशनासिके सङ्गिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनीं कबोलौ कालिका रक्षेत् कर्णमूले तु शाङ्करीं नासिकायां सुगन्धा च उत्तरोष्टे च चर्षिका अधरे सामृतकला जिह्वायां च सरस्वतीं थन्दान् रक्षद् कौमारीं कण्ठमध्ये च चण्डिकां खण्डिकां चित्रकण्ठा च महामाया च तालुके कामाक्षी शिबुकं रक्षेत् वासं मे सर्वमङ्गला ग्रीवायां भद्रकाली च पृष्ठवंशी धनुर्धरीं नीलग्रीवा बहिष्कण्ठे नलिकां नलकूपरीं खड्गधारिण्युभौ स्कन्दौ बाहु मे वज्रधारिणीं हस्तयोर्दण्डिनी रक्षेद् अम्बिका साङ्गुलीषु च नखाञ्चूलेश्वरी रक्षेत् कक्षौ रक्षेन्नलेश्वरीं स्तनौ रक्षेन्महादेवीं मनःशोकविनाशिनीं